इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरातप्रदेशे श्रीसोमनाथसमित्याः उपवेशने आध्यक्षं निर्वहति। अनन्तरं सः जामनगरे वनतारा पशुरक्षणकेन्द्रस्य परिभ्रमणं करिष्यति। गृहमन्त्री अमितशाहः प्रोक्तवान् यत् सर्वकारोऽयं मादकद्रव्यमुक्तं भारतं निर्माणाय प्रयासं करोति। निर्वाचनायोगेन स्पष्टीकृतं यत् मतदातॄणां सचित्रपरिचयपत्रस्य पुनरावृत्तेः तात्पर्यम् अनधिकृतमतदातृत्वेन न परिगण्यते। यूक्रेनदेशस्य राष्ट्रपतिः व्लादिमीर जेलेन्स्की अवदत् यत् अमरीकादेशस्य राष्ट्रपतिनः डोनाल्ड ट्रम्पस्य समर्थनं स्वदेशस्य कृते महत्वपूर्णम् अस्ति। अपि च सेंटियागो नगरे संजातायां टेनिस स्पर्धायां भारतस्य ऋत्विक चौधरी वोली पल्ली अथ च निकोलस बेरी संतोष इति चिली ओपन इत्यस्याः स्पर्धायाः पुरुष युगलवर्गे पदकम् अधिगतवन्तौ। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरातप्रदेशस्य जूनागढस्थे शासनक्षेत्रे श्रीसोमनाथसमित्याः उपवेशने आध्यक्षं निर्वहति। अनन्तरं सः जामनगरे वनतारा पशुरक्षणकेन्द्रस्य परिभ्रमणं करिष्यति। सः राज्यस्य त्रिदिवसीययात्रायाम् अस्ति। श्रीमोदी अवसरेऽस्मिन् श्रीसोमनाथमन्दिरे अर्चनामपि विधास्यति। गृहमन्त्री अमितशाहः अद्य सूचितवान् यत् सम्पूर्णे देशे द्वादश विभिन्नप्रकरणेषु एकोनत्रिंशत् मादकद्रव्याणां विक्रेतारः न्यायालयेन दण्डिताः सन्ति। सामाजिक अन्तर्जालीय प्रसारतन्त्रमाध्यमेन श्रीशाहः अवदत् यत् नरेन्द्रमोदीसर्वकारः मादकद्रव्याणां विक्रेतॄन् न्यायालयं प्रति आनेतुं प्रतिबद्धः अस्ति। सममेव श्रीशाहः प्रोक्तवान् यत् सर्वकारोऽयं मादकद्रव्याणां प्रकोपं विरुध्य अथ च मादकद्रव्यात् मुक्तं भारतं कर्तुं प्रयासं करिष्यतीति। भारतनिर्वाचनायोगेन स्पष्टीकृतं यत् मतदातॄणां सचित्रपरिचयपत्रस्य अंकानां पुनरावृत्तेः तात्पर्यम् अनधिकृतमतदातृत्वेन न परिगण्यते। वक्तव्यमिदं आयोगेन भिन्नयोः राज्ययोः मतपत्रयोः समानपरिचयपत्राङ्कस्य उपलब्धताविषयिकवार्तावाहिनीषु प्रसार्यमाणानां वार्तानामुत्तरे उक्तम्। आयोगेन स्पष्टं कृतं यत् द्वयोः मतदात्रोः समानपरिचयपत्राङ्कस्य सम्भावना अस्तीति। परं जनसांख्यिकीय विवरणं विधानसभानिर्वाचनक्षेत्रं मतदानकेन्द्रसहितम् अन्यानि विवरणानि समानपरिचयपत्राङ्कयुतयोः मतदात्रोः समानं न भविष्यतीति निश्चितमस्ति। आयोगेन एतदपि स्पष्टीकृतं यत् एकस्य मतदातुः निर्धारितमतदानकेन्द्रात् परम् अन्यत्र मतदानस्य सम्भावनापि न गण्यमस्तीति। यूक्रेनदेशस्य राष्ट्रपतिः व्लादिमीर जेलेन्स्की अवदत् यत् अमेरिकादेशस्य राष्ट्रपतिनः डोनाल्ड ट्रम्प इत्यस्य समर्थनं स्वदेशस्य कृते महत्वपूर्णम् अस्ति। व्हाइट हाउस इति स्थले प्रचलितायाम् अमेरिकायाः राष्ट्रपतिनः उपराष्ट्रपतिनः च एकस्मिन् परिचर्चायाम् एतद् वक्तव्यम् आगतमस्ति। एकस्मिन् अन्तर्जालीयपटलसन्देशमाध्यमेन राष्ट्रपतिः जेलेन्स्की प्रोक्तवान् यत् रूसदेशेन सह त्रिवर्षात्मके युद्धकाले अमरीकीयसहायतार्थं यूक्रेनदेशः कृतज्ञः अस्ति। असौ अवदत् यत् राष्ट्रपतिः ट्रम्पः अस्य युद्धस्य विरामम् इच्छति, परञ्च कोऽपि यूक्रेनदेशसमं शान्तिं नेच्छतीति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः एकस्मिन् कार्यालयीय आदेशपत्रं प्रकाश्य आंग्लभाषां संयुक्तराज्य अमेरिकायाः आधिकारिकभाषारूपेण स्वीकर्तुम् आदेशं प्रदत्तवान्। एषः आदेशः भूतपूर्वस्य राष्ट्रपतिनः बिल क्लिंटन इत्यस्य तम् आदेशं प्रत्यावर्तयति यस्मिन् जनेभ्यः संघीयसंस्थाः संघीयनिधिप्राप्तकर्तारश्च अन्य आंग्लभाषिकजनेभ्यः सहायतावाप्तये आवश्यकः आसीत्। नूतननिर्देशानुसारं प्रोदीरितं यत् आंग्लभाषायाः आधिकारिकभाषारूपेण स्वीकरणम् एकतां सञ्चारं संवर्धयिष्यति, सुसमाजस्य निर्माणञ्च करिष्यति। उत्तराखण्डराज्यस्य चमोली जनपदस्य माणाग्रामं निकषा हिमस्खलनघटनायां मृतकानां संख्या संवर्ध्य 8 संजाता अस्ति, यतोहि अद्यापि आपदुद्धारदलेन 4 शवाः दुर्घटनास्थलात् निस्सारिताः। हिमस्खलने अवरुद्धाः 4 श्रमिकाः कथञ्चिदपि रक्षणाय अभियानं प्रचाल्यमानमासीत्। मुख्यमन्त्रिणा पुष्करसिंहधामिना देहरादूनस्थं आपदा नियन्त्रणकक्षं सम्प्राप्य स्थितेः निरीक्षणमपि कृतमासीत्। तेनोक्तं यत् सेना भारत तिब्बत सीमा प्रहरिणः आपदुद्धारदलं समेत्य जनपद प्रशासनञ्च युद्धस्तरेण आपदुद्धारकार्ये संयुक्ताः आसनिति। भारते गत कतिपय वर्षेषु निर्धनता आधिक्येन न्यूनतां सम्प्राप्तास्ति। एकेन नूतन शोधपत्रानुसारेण सिद्धीकृतमस्ति यत् गते दशाब्दे सर्वाधिकतया निर्धनता सूच्याम् अपचितिः परिलक्षितास्ति। अर्थशास्त्रिणा भल्ला सुरजितेन करण भसीनेन च प्रकाशिते शोधपत्रे त्रयोविंश चतुर्विंशे च वर्षे प्रकाशिते जनानां व्ययशक्तेः समाकलनानुसारं विश्लेषणपूर्वकं निष्कर्षोऽयं निष्पादितोऽस्ति। एतेषां सर्वेक्षणानां समाकलनानुसारं भारते निर्धनतायाः स्तरे पर्याप्ततया न्यूनता आगतास्तीति सङ्केताः प्राप्यन्ते। शोधपत्रे सबलं प्रतिपादितमस्ति यत् अत्यधिकनिर्धनता प्रायशः नगण्यस्तरं यावत् अपचितास्तीति। उपराष्ट्रपतिः जगदीप धनखड़ः प्रोक्तवान् यत् विकसित भारतं केवलं स्वप्नः नास्ति, एषः अस्माकं उद्देश्यः अस्ति। अस्मिन् उद्देश्ये यूनः महत्वपूर्णां भूमिकां निर्वहन्ति। सः अद्य तिरुवनन्तपुरं नगरे भारतीय विचारकेन्द्रद्वारा समायोजिते 4th पी परमेश्वरन स्मृति व्याख्यानमालायां भाषमाणः आसीत्। श्री धनखड़ः अवदत् यत् देशे यत् किमपि भवति तत् वैश्विकरूपेण अस्मान् गौरवान्वितं करोति। सः अवदत् यत् भारतं सम्प्रति विश्वस्य 5th अर्थव्यवस्था अस्ति, तथा च शीघ्रमेव 4th बृहत्तमी वैश्विकी अर्थव्यवस्था भवितुं शक्नोति इति। असौ कार्यक्रमस्य अस्य अनन्तरं हैदराबादं प्रति प्रस्थितवान्। रमजान पर्वणः पवित्रमासः अद्यारभ्य समारभते। गतरात्रौ मस्जिदाख्येषु धार्मिकस्थलेषु बहवः मुस्लिम धर्मावलम्बिनो जनाः सम्मिलिताः अभवन्। रमजान इति पर्व इस्लामी पञ्चाङ्गस्य 9th मासः अस्ति। रमजान मासस्य अन्तिमे दिवसे ईद उल फितर इति उत्सवः परिपाल्यते। प्रधानमन्त्री श्री नरेन्द्र मोदी रमजान पर्व आलक्ष्य जनेभ्यः शुभकामनाः प्रदत्तवान्। ध्यातव्यमस्ति यत् अद्य अरब देशेषु रमजान मासस्य 2nd दिवसः अस्ति। अन्ते क्रीडावार्तासु, पप्रथमतया क्रिकेट क्रीडा। पुरुषाणां ICC चैम्पियन्स ट्रॉफी इत्यस्यां क्रिकेट क्रीडास्पर्धायाम् उपान्त्यचक्रात् प्राक् भारत न्यूजीलैंड देशयोः क्रीडा प्रचलति। प्राथम्येन चयनावसर लब्धेन न्यूजीलैंड देशेन भारताय प्रथमतया क्रीडावसरः दत्तः। अद्य रोहित शर्मा, शुभमन गिल, विराट कोहली इत्यादयः शीर्षक्रमस्य क्रीडकाः आशानुरूपं न क्रीडितवन्तः। पुनरपि श्रेयस अय्यर, अक्षरपटेलादिभिः सश्रमं 49,200 धावनाङ्काः कारिताः।